अयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः श्रीलंकादेशस्य राष्ट्रपतिना अनुराग कुमार दिसानायके इत्यनेन सह दूरभाष माध्यमेन वार्तालापो विहितः। सममेव वर्तमानस्य ऑपरेशन सागर बन्धु इत्यस्यान्तर्गतं श्रीलंकादेशस्य पीडितानां जनानां उद्धारार्थं उपशमनार्थं च भारतस्य निरन्तरं समर्थनं भवति इति आश्वासयत्। वार्तालापावसरे राष्ट्रपतिः दिसानायके इत्येषः अपि आपदायाः परिप्रेक्ष्ये भारतस्य साहाय्यार्थं गभीरं कार्तज्ञभावम् अप्रकटयत्, तथा च उद्धारदलानां साहाय्य सामग्रीणां च द्रुतनियोजनस्य प्रशंसाम् अकरोत्। चलदूरभाषायाः प्रामाणिकतां सत्यापयितुं चलदूरभाषायां संचारसाथी तन्त्रांशस्य पूर्वस्थापनार्थं सर्वकारेण निर्देशाः प्रदत्ताः। दूरसंचारविभागेन मोबाइल हैंडसेट निर्मातृभ्यः आयातकेभ्यः च निर्देशो प्रदत्तः यत् भारते उपयोगाय निर्मितासु सर्वासु दूरभाषासु संचारसाथी इति तन्त्रांशः पूर्वमेव स्थापितं भवेत् इति सुनिश्चितं कर्तव्यम्। विभिन्नेषु राज्येषु केन्द्रशासित प्रदेशेषु च निर्वाचन भूमिकायां विशेष गहन संशोधनम् SIR इत्यादीनां विषयेषु विपक्षस्य कोलाहलानन्तरं ह्यः लोकसभायाः कार्यं दिवस पर्यन्ताय स्थगितम्। द्वितीय स्थगनस्य अनन्तरं अपराह्णे द्विवादने यदा लोकसभायाः आरम्भः अभवत् तदा केन्द्रीय वित्त मन्त्री निर्मला सीतारामणः 25,000,000 मणिपुर वस्तु सेवा करं द्वितीयं संशोधनं विधेयकं चर्चायै अंगीकाराय च प्रस्तुतवती। तदा विपक्षस्य कोलाहलस्य मध्ये ध्वनिमतेन विधेयकं स्वीकृतम्। कोलाहलपूर्णे वातावरणे वित्तमन्त्री निर्मला सीतारामनः तम्बाकू तथा तत्सम्बन्धेषु उत्पादेषु उत्पादशुल्कं वर्धयितुं केन्द्रीय उत्पादशुल्कं संशोधनं विधेयकं 2025 प्रस्थापयत्। विपक्षस्य विरोधस्य मध्ये पीठासीन अधिकारी विरोध प्रदर्शनरतेभ्यः सदस्येभ्यः सभायाः कार्याचरणाय अनुमतेः आग्रहं कृतवान्। अनवरत कोलाहलानन्तरं सभा पुनः स्थगिता। केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधानः अपि च उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः च संयुक्तरूपेण वाराणस्यां काशी तमिल संगमम् इत्यस्य चतुर्थ संस्करणस्य उद्घाटनं विधास्यतः। अयं कार्यक्रमः काशी तमिलनाडु राज्ययोः मध्ये अति प्राचीन सम्बन्धानां नवीनीकृतम् उत्सवं निर्दिशति, येन गहन प्रवाहः तीर्थयात्रा कलात्मक शैक्षणिक आदान प्रदानं च प्रवर्धते। मन्त्रालयेन प्रख्यापितं यत् संगमम् उत्तर भारतस्य दक्षिण भारतस्य च मध्ये सेतुरूपेण कार्यं करिष्यति इति। राष्ट्रिय अन्वेषण संस्था दिल्ली कार विस्फोटन प्रकरणस्य अन्वेषणस्य भागरूपेण जम्मू कश्मीर उत्तर प्रदेशयोः अनेकेषु स्थानेषु अन्वेषणम् अकरोत्। जम्मू कश्मीर राज्यस्य शोपियान कुलगाम पुलवामा अवन्तीपोरा इत्येतेषु मण्डलेषु आहत्य अष्ट स्थानेषु लखनऊ नगरस्य एकस्मिन् स्थाने च अन्वेषणम् अभवत् इति NIA संस्थया एकस्मिन् वक्तव्ये संसूचितम्। अटल पेंशन योजना इत्यस्मिन् 8.34 कोट्यधिक नामांकनं पारितम्। वित्तमंत्री निर्मला सीतारामनः ह्यः लोकसभायां एकस्मिन् प्रश्नस्य प्रत्युत्तरे उक्तवती महिलानां योगदानं कुलग्राहकेषु 48% भवति, यत् सम्पूर्णे देशे महिला लाभार्थिनां महत्वपूर्णां सहभागितां प्रतिबिम्बयति। 25,000,000 वर्षे आरब्धा इयं योजना नागरिकाणां कृते व्यवस्थायाः निर्माणं करोति इति वार्ताः।